अनिरुद्धाय नमः ॐ धन्वन्तरये नमः ताम्बूलं समर्पयामि नीराजनम् वेदाहमेदम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यतास्ते चतुर्वर्तिसमायुक्तम् घृतेन च सुपूजितम् नीराजनेन सन्तुष्ट भवदेव जगत्पते सोमो वा एतस्य राज्यमादत्ते यो राजा सन् राज्यो वा सोमे न यजते देवसु वा मेतानि हवीगुंषि भवन्ति एतावन्तो वै देवानागुंसवाः स एवास्मै सवान् प्रयच्छन्ते त एनम् पुनस्तुवन्ते राज्याय देवसु राजा भवति राजाधिराजाय प्रसह्य सायिने नमो वयम् वै श्रवणाय गुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु गुभे